Gananantva Ganapatigum Havamahe Kavim Kavinamupamashravastamam Jeshtharajam Brahmanam Brahmanaspata Anashrinvannodibhissidasadhanam Prano Devi Saraswati Vaje Bhirvajini Vati Dhinama Vitriyavatu Ganeshaya Namaha Sarasvatyai Namaha Shri Gurubhyo Namaha Hari Om Om Namo Bhagavate Rudraya Om Namaste Rudra Manyava Uto Daishave Namaha Namaste Astu Dhanvane Bahubhya Mutate Namaha Yata Isho Shivatama Shivam Babhuvate Dhanuhu Shivasaravyayata Vatayano Rudra Mridagya Yate Rudra Shivatano Raghora Papakashini Tayanastanu Pachantamaya Girishanta Vijagashi Yamisham Girishanta Hatte Bhibhashyatta Vem Shivam Giritratam Kurumadhi Gumsi Purusham Jagate Shivena Vajasatva Girishachya Vadamasi Yadhana Sarvamijjagata Yachvagum Sumana Adhate Adhyavochada Divakta Pratamo Daivyo Vishake Ahigascha sarva jambhayan sarva chayatu dhanyaha asau yattamro aruna uta babrasu mangalaha ye che magum rudra abido diksha shritata srasho vaishagum hedagi mahe Atavyo Vatarpati Nilagrebo Vilohitaha Utainam Gopa Adrushannadrushannudaha Adyaha Utainam Vishwa Bhutani Sadrishto Mridayadinaha Namo Astu Nilagrebaya Sahasrakshaya Medushe Adhoge asya sattvanoham tebhyo garan namaham Pramunja dhanvanastvamubayoratniyorjyam Yascha te hasta isha vapparata bhagavo vapam Avatatya dhanusvagum sasrakshashate shudhe Nishitya Shalyana Mukha Shivona Sumanabhava Vijyam Dhanukka Pardino Vishalyo Banavagum Uta Aneshan Nasyeshava Aburasya Nishangatihi Yate Hedirmi Dutta Mahaste Babuvate Dhanuhu Tayasman Vishvatasvama Yakshmaya Paribhuja Namaste Asvayudhaya Natataya Drishnave Ubhabhyam Utate Namo Bahubhyam Tavadhanvane Parite Dhanvano Hetirasman Vrinak Tu Vishvataha Adho Yai Shudhistavare Asmanidehitam नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युं जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यबाहवे सेनाग्ये दिशां च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्य पशूनां पतये नमो नमः सत्पिञ्जराय त्विषीमते पदेनां पतये नमो नमो बब्लुषाय विव्याधिने नानाम् पतये नमो नमो हरिकेशायोपवेदिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगताम् पतये नमो नमो रुद्रायातताविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो द्रोहिताय तपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनाम् पतये नमो नमः कृष्णवेताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषु धिमते नस्कराणाम् पतये नमो नमो वञ्जते परिवञ्जते सायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः श्रिकाविभ्यो जिगागुम् सद्भ्यो मुष्टताम् पतये नमो नमो श्रीमद्भ्यो दत्तम् चरद्भ्यः प्रकृन्तानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्जानाम् पतये नमो नम इषु मद्भ्यो दन्वाविभ्यः वो नमो नम आदन्वानेभ्य प्रदिदधानेभ्यश्च वो नमो नम आगच्छद्भ्यो वितृजभ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावभ्यश्च वो नमो नमः सभाभ्यः सभापदिभ्यश्च वो नमो नमो अश्वेभ्यो अश्वपदिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगणाभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपदिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपदिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रतिभ्यः ಭ್ಯೋ ರಥೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ರಥೇಭ್ಯೋ ರಥಪದಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಸೇನಾಭ್ಯಸೇನಾನಿಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕ್ಷತ್ರಭ್ಯಃ ಸಂಗ್ರಹೇತೃಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಸ್ತಕ್ಷದ್ಭ್ಯೋ ರಥಕಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಕುಲಾಲೇಭ್ಯಃ ಕರ್ಮಾರೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಃ ಪುಂಜಿಷ್ಟೇಭ್ಯೋ ನಿಷಾದೇಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಗೆ ಶುಕ್ರದ್ಭ್ಯೋ ಧನ್ವಕೃದ್ಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮೋ ಮೃಗಯುಭ್ಯಶ್ವನೆಭ್ಯಶ್ಚ ವೋ ನಮೋ ನಮಶ್ವಭ್ಯಶ್ವಪದಿಭ್ಯಶ್ಚ ವೋ ನಮಃ ನಮೋ ಭವಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ಶರ್ವಾಯ ಚ ಪಶುಪತಯೇ ಚ ನಮೋ ನೀಲಗ್ರೀವಾಯ ಚ ಶಿತಿಕಂಠಾಯ ಚ ನಮಃ ಕಪರ್ದಿನೇ ಚ ಯುಕ್ತಕೇಶಾಯ ಚ ನಮಃ ಸಹಸ್ರಾಕ್ಷಾಯ ಚ ಶತಧನ್ವನೇ ಚ ನಮೋ ಗಿರಿಶಾಯ ಚ ಶಿಪಿವಿಷ್ಟಾಯ ಚ ನಮೋ ಮೇಡುಟ್ಟಮಾಯ ಚೇಷುಮತೇ ಚ ನಮೋ ಹ್ರಸ್ವಾಯ ಚ ವಾಮನಾಯ ಚ ನಮೋ ಬೃಹತೇ ಚ ವರ್ಷೀಯಸೇ ಚ ನಮೋ ವೃದ್ಧಾಯ ಚ ಸಂವೃದ್ಧನೇ ಚ ನಮೋ ಅಗ್ರಿಯಾಯ ಚ ಪ್ರಥಮಾಯ ಚ ನಮಃ ಆಶವೇ ಚಾಚಿರಾಯ ಚ ನಮಃ ಶೀಘ್ರಿಯಾಯ ಚ ಶೇಭ್ಯಾಯ ಚ ನಮಃ ಓರ್ಭ್ಯಾಯ ಚ ವತ್ಸನ್ಯಾಯ ಚ ನಮಃ ಶ್ರೋತಸ್ಯಾಯ ಚ ದ್ವೀಪ್ಯಾಯ ಚ ನಮೋ ಜ್ಯೇಷ್ಠಾಯ ಚ ಕನಿಷ್ಠಾಯ ಚ ನಮಃ ಪೂರ್ವಜಾಯ ಚ ಪರಜಾಯ ಚ ನಮೋ ಮಧ್ಯಮಾಯ ಚ ಪಗಲ್ಭಾಯ ಚ ನಮೋ ಜಗನ್ಯಾಯ ಚ ಪುತ್ನಿಯಾಯ ಚ ನಮಃ ಸೋಭ್ಯಾಯ ಚ ಪ್ರತಿಸರ್ಯಾಯ ಚ ನಮೋ ವ್ಯಾಮ್ಯಾಯ ಚ ಕ್ಷೇಮ್ಯಾಯ ಚ ನಮಃ ಉರ್ವರ್ಗ್ಯಾಯ ಚ ಘಲ್ಯಾಯ ಚ ನಮಃ ಶ್ಲೋಕ್ಯಾಯ ಚಾವಸಾನ್ಯಾಯ ಚ ನಮೋ ವನ್ಯಾಯ ಚ ಕಕ್ಷಾಯ ಚ ನಮಃ ಶ್ರವಾಯ ಚ ಪ್ರತಿಶ್ರವಾಯ ಚ ನಮಃ ಆಶುಷೇಣಾಯ ಚಾಶುರಥಾಯ ಚ ನಮಃ ಶೂರಾಯ ಚಾವಬಿಂದತೇ ಚ ನಮೋ ವರ್ಮಿಣೇ ಚ ವರುಧಿನೇ ಚ ನಮೋ ಬಿಲ್ಮಿಣೇ ಚ ಕವಚಿನೇ ಚ ನಮಃ ಶ್ರುತಾಯ ಚ ಶ್ರುತಸೇನಾಯ ಚ ನಮೋ ದುಂದುಭ್ಯಾಯ ಚ ಅನನ್ಯಾಯ ಚ ನಮೋ ದೃಷ್ಣವೇ ಚ ಪ್ರಮೃಷಾಯ ಚ ನಮೋ ದೂತಾಯ ಚ ಪ್ರಹಿತಾಯ ಚ ನಮೋ ನಿಷಂಗಿಣೇ ಚೇಷುಧಿಮತೇ ಚ ನಮಃ ತೀಕ್ಷ್ಣೇಶವೇ ಚಾಯುಧಿನೇ ಚ ನಮಃ ಸ್ವಾಯುಧಾಯ ಚ ಮುಧನ್ವರೇ ಚ ನಮಃ ಶ್ರುತ್ಯಾಯ ಚ ಪತ್ಯಾಯ ಚ ನಮಃ ಕಾಕ್ಯಾಯ ಚ ನೀಪ್ಯಾಯ ಚ ನಮಃ ಸೋದ್ಯಾಯ ಚ ತರಸ್ಯಾಯ ಚ ನಮೋ ನಾದ್ಯಾಯ ಚ ವೈಶಂತಾಯ ಚ ನಮಃ ಕೋಪ್ಯಾಯ ಚ ವಟ್ಯಾಯ ಚ ನಮೋ ವಶ್ಯಾಯ ಚ ವಶ್ಯಾಯ ಚ ನಮೋ ಮೇಘ್ಯಾಯ ಚ ವಿದ್ಯುತ್ಯಾಯ ಚ ನಮಃ ಈದ್ರಿಯಾಯ ಚ ತಪ್ಯಾಯ ಚ ನಮೋ ವಾತ್ಯಾಯ ಚ ರೇಷ್ಮಿಯಾಯ ಚ ನಮೋ ವಾಸ್ತವ್ಯಾಯ ಚ ವಾಸ್ತುಪಾಯ ಚ ಓಂ ಹರ 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 ಓಂ ನಮಃ ಸೋಮಾಯ ಚ ರುದ್ರಾಯ ಚ ನಮಃ ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्द्रे चहनीयते च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्काराय नमः शम्भवे च मयो भवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तीर्त्याय च कोल्याय च नमः पार्याय च भार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आताद्याय जालाद्याय च नमः जष्प्याय च भेन्याय च नमः सिकत्याय च प्रवाक्याय च नमः इलिन्याय च प्रपत्याय च नमः किगुंशिराय च क्षगणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः स्थल्प्याय च गेख्याय च नमः कार्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेश्याय च नमः पागुंसव्याय च रजस्याय च नमः चुष्ट्याय च हरित्याय च नमो लोप्याय चोलप्याय च नमः ओर्व्याय च सोर्म्याय च नमः पर्ण्याय च वर्णषद्याय च नमो पगुरमाणाय च विद्धते च नमः आखिदते च प्रखिदते च नमो किरिकेभ्यो देवानागम् हृदयेभ्यो नमो वृक्षेनकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमीवक्केभ्यः द्रापे अन्धसत्पदे दरिद्रन्नीलोहिता येषाम् पुरुषाणाम् येषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्चन ममत् या ते रुद्रशिवा तनो शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजी दयानो मृण जीवते इमागुम् रुद्राय तव सेकपर्दिने क्षयद्वीराय प्रवरामहे मतिम् यथा नः शमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृणानो रुद्रो तनो मयस्कृति क्षयद्वीराय नमसा विदेमते यच्चम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्भकम् मान उक्षन्तमुतमान उक्षितम् मानो वधे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्र नीरिषः मानस्तोके तनये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वदिर्हविष्वन्तो नमसा विदेवते आराते गोग्न उत पोरुषग्ने क्षयद्वीराय सुम् नमस्वेते अस्तु रक्षाजनो अदि च देव ब्रूह्यथा च नः शर्म यच्च द्विबरुहाः सुहिश्रुतम् गत्त सतम् युवानम् मृगन्न भीममुपहत्वमुग्रम् मृणा च रुद्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य हेते वृणक्तो परिपेशस्य दुर्मदिरघायो अवस्थिरा मगवद्यस्तनुष्वमीडुस्तोकाय तनयाय मृडया मीडुष्टमशिवतमशिवो न सुमना भव परमे वृक्ष आयुधन् निधाय कृत्तिम् वसा न आचर पिनाकम् विप्रदागहे विकिरिद विलोहित नमस्ते अस्तु भगवः याते सहस्रगुम् नेदयोन्यमस्मन्निव पन्तुता सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगव पराचीना मुखाकृते सहस्राणि सहस्रशो ये रुद्रा अरिभूम्या तेषागुम् सहस्रयोजने वधन्वानि तन्मसे अस्मिन् महत्यर्णवेन्दरिक्षे भवा अधि नीलग्रीवाशिति कण्ठा शर्वा अधः क्षवाचराः नीलग्रीवाशिति कण्ठादिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कपर्दिनः ये अन्येषु विविद्यन्ति पात्रेषु विपदोचनान् ये पताम् पदिरक्षय ऐलभृदायव्युदः ये तीर्थानि प्रचरन्ति श्रृकावन्तो निषङ्गिनः य एतावन्तश्च भूयागुंसश्च दिशो रुद्रावितस्थिरे तेषागुंसहस्रयोजने वधन्वानि तन्मसे नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषवस्तेभ्यो दश प्राचेर्दश दक्षिणा दश प्रति चेर्दशो दिचेर्दशो द्वातेभ्यो नमस्ते नो मृणयन्तु तेयम् विश्वो यश्च नो द्वेष्टिदम् भोजम् भेददामि त्र्यम्बकय्यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकमिव बन्धनान् नृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्रव्यो अप्सु य ओषधीषु यो रुद्रो विश्व भुवना विवेश तस्मै रुद्राय नमो अस्तु एते सहस्रमयुतम् पाशा मृत्यो मध्याय हन्तवे तान्यज्ञस्य मायया सर्वानवयजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा प्राणानाम् ग्रन्थिरसि रुद्रो माभिशान्तकः तेनानेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि तमस्तु हि यस्वशस्व धन्वायो विश्वस्य क्षयति भेषजस्य यक्ष्वा महेशो मनसाय रुद्रम् नमो भिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवान् अयम् मे भगवत्तरः अयम् मे विश्वभेषजो यगुम् शिवाभिमर्शनः ॐ शान्ति 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 ॐ अग्नाविष्णो सजोषसेवावर्धन्तु वाङ्गिरः द्युम्नैर्वाजेभिरागतम् वायश्च मे प्रसवश्च मे प्रयतिश्च मे प्रसितिश्च मे धीतिश्च मे क्रतुश्च मे स्वरश्च मे श्लोकश्च मे श्रावश्च मे श्रुतिश्च मे ज्योतिश्च मे शुभश्च मे प्राणश्च मे पानश्च मे ध्यानश्च मे शुश्च मे चित्तं च आधीतं च मे वाक्च मे मनश्च मे चक्षुश्च मे श्रोत्रं च मे दक्षश्च मे बलं च ओजश्च मे सहश्च आयुश्च मे जया च आत्मा च मे तनोश्च मे शर्म च मे वर्म च मेऽङ्गानि च मे स्वानि च मे परोगुंषि च मे शरीराणि च मे ज्येष्ठं च आधिपत्यं च मे मन्यश्च मे भामश्च मेमश्च मेऽम्बश्च मे जीमा च मे महिमा च मे वरिमा च मे प्रतिमा च मे वश्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश्च मे सत्यं च मे श्रद्धा च मे जगच्च मे धनं च मे वशश्च मे द्विषश्च मे क्रीडा च मे मोदश्च मे जातं च मे जनिष्यमाणं च मे सोक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच्च मे सुखं च मे सुपतं च मरुद्धं च मरुद्धिश्च मे कृप्तं च मे कृप्तिश्च मे मतिश्च मे सुमतिश्च मे शं च मे मयश्च मे प्रियं च मे नुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे ग्रन्था च मे धर्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सोश्च मे प्रसोश्च मे शीलं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सुषा च मे सुदिनं च मे ऊच्च मे सुनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सद्धिश्च मे सपेतश्च मे कृषिश्च मे वृष्टिश्च मे जैत्रं च औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभुज मे प्रभुज मे बहुज मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कोयवाश्च मे नं च मे शुच्च मे विहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्गाश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गमश्च मेणवश्च मे शामाकाश्च मे नीवाराश्च मे अश्वा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिगताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च आपश्च मे वीरुधश्च मओषधयश्च मे कृष्टपच्यञ्च मे कृष्टपच्यञ्च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तञ्च मे वित्तिश्च मे भूतञ्च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एवश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षम् च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंशश्च मे रश्मिश्च मेधाभ्यश्च मेधिपतिश्च म उपागुंसश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म आश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्दे च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतुग्रहाश्च मेति ग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्वतीयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पार्थिवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदश्च मे धृष्णीयाश्च मे स्वजश्च मे चमसाश्च मे ग्रावाणश्च मे स्वरवश्च म उपरवाश्च मे ऋषवणे च मे द्रोणकलशश्च मे वायव्यानि च मे पोतवृक्ष म आदभणीयश्च म आग्नेयेर्धम् च मे हविर्धारम् च मे गृहाश्च मे सदश्च मे पुरोडाशाश्च मे पचताश्च मे वभृतश्च मे स्वगाकारश्च मे अग्निश्च मे घर्मश्च मे कश्च मे सूर्यश्च मे प्राणश्च मे श्वमेधश्च मे पृथिवी च मे दितिश्च मे दितिश्च मे द्यौश्च मे शक्वरेरङ्गुलयोदिशश्च मे यज्ञेन कल्पन्ताम्रच्च मे साम च मे सोमश्च मे यजुश्च मे दीक्षा च मे तपश्च मरुतश्च मे व्रतम् च मे होरात्रयोर्दृष्ट्या बृहद्रतन्तरे च मे यज्ञेन कल्पेताम् गर्भाश्च मे वत्साश्च मे त्रयविश्च मे त्रयवी च मे दित्यवाच्च मे दित्यौ हि च मे पञ्चाविश्च मे पञ्चावी च मे त्रिवत्सश्च मे त्रिवत्सा च मे तुर्यवाच्च मे तुर्यौ हि च मे पष्टवाच्च मे पष्टौ हि च म उक्षा च मे वशा च म ऋषभश्च मे మేహచ్చ మే నడ్వాంచ మే ధేనుశ్చ మాయ యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం వ్యానో యజ్ఞేన కల్పతాం చక్షుర్ యజ్ఞేన కల్పతాం శ్రోత్ర యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాగ్ యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మ ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మ ఏకవిగుంశతిశ్చ మే త్రయో విగుంశతిశ్చ మే పంచ విగుంశతిశ్చ మే సప్త విగుంశతిశ్చ మే నవ విగుంశతిశ్చ మ ఏకత్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రశ్చ మే ష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మే ష్టావిగుంశతిశ్చ మే ద్వాత్రిగుంశచ్చ మే షత్రిగుంశచ్చ మే చత్వారిగుంశచ్చ మే చతుశ్చత్వారిగుంశచ్చ మే ష్టాచత్వారిగుంశచ్చ మే వాజశ్చ ప్రసవశ్చ విజశ్చ క్రతుశ్చ సువశ్చ మూర్ధాచ వ్యశ్నియశ్చాంద్యాయనశ్చాంద్యశ్చ భౌవనశ్చ భువనశ్చాధిపతిశ్చ ఇడాదే బహోర్మనుర్యజ్ఞనే బృహస్పతిరుక్తామదాని సగుంచి షద్విశ్వే దేవాసూక్తవాచ పృథివీమాతర్మా మాహిగుంసేర్మధుమనిష్యే మధుజనిష్యే మధువక్ష్యామి మధువదిష్యామి మధుమతీం దేవేభ్యో వాచముద్యాతగుం దుశ్రూషేణ్యా మనుష్యేభ్యస్తం మా దేవ అవంతు శోభాయై పితరో ను మదంతు ఓం శాంతి శాంతి శాంతిః ఓం తచ్ఛయ్యో నావిణీమహే గాతం యజ్ఞాయ గాతం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం షన్నో అస్తు ద్విపదే షం చతుష్పదే ఓం శాంతి శాంతి శాంతిః సహస్రశీర్షా పురుషః సహస్రాక్ష సహస్రపాద్ సభూమిం విశ్వతో వృత్వా అత్యతిష్ఠద్దశాంగులం పురుష ఏవేదగుం సర్వం యద్భూతం యచ్చ భవ్యం ఉదామృతత్వస్యేషానః యదన్నేనాతిరోహతి ఏతావానస్య మహిమా అతోజ్యాయాగుశ్చ పూరుషః పాదోస్య విశ్వా భూతాని త్రిపాదస్యామృతం దివి త్రిపాదూర్ధ్వ ఉదయత్పురుషః పాదోస్యేహాభవాత్ పునః తతో విశ్వం యక్రామత్ శాశనానశని అభి తస్మాద్ విరాడ జాయత విరాజో అధిపురుషః స జాతో అత్యరిచ్యత पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वत वसन्तो अस्यासीदाज्यम् ग्रीष्म युध्मः शरद्भविः सप्तास्यासन् परिधयः त्रिसप्तसमिदः कृताः देवा यद्यज्ञम् तन्वानाः अबध्नन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रोक्षन् पुरुषम् जातमग्रतः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संभृतम् पृषदाज्यम् पशुगुस्तादुश्चक्रेवायव्यान् आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः रचः सामानि जग्निरे छन्दागुंसि जग्निरे तस्मात् यदुस्तस्मादजायत तस्मादश्वा अजायन्त एके चोभयादतः गावोह जग्निरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यधदुः कथिथा व्यकल्पयन्न मुखम् किमस्य कौ बाहो का भूरूपादावुच्येते ब्राह्मणोऽस्य मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैश्यः पद्भ्यागुम् शूद्र अजायत चन्द्रमा मनसो जातः चक्षोः सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत नाभ्या आसीदन्तरिक्षम् शीर्ष्णाद्यौ समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु पारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वाभिवदन्यदास्ते भाता पुरस्ताद्यमुदा जहार शक्रप्रविद्वान् प्रदिशश्च तस्रः तमेवम् विद्वानमृत इह भवते नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् देहनाकम् महिमानः सजन्ते यत्र पूर्वे साध्यास्सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरसाच्च विश्वकर्मणः समवर्ततादे तस्य त्वष्टा विदद्रूपमेते तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवते नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य धीराः परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः నమో రుచాయ బ్రాహ్మయే రుచం బ్రాహ్మణ జనయంతః దేవా అగ్రే తదబ్రువన్ యస్త్వైవం బ్రాహ్మణో విద్యాత్ తస్య దేవా అసన్వశే హ్రేశ్చ తే లక్ష్మీశ్చ పత్న్యో అహోరాత్రే పార్శ్వే నక్షత్రాణి రూపం అశ్వినౌ వ్యాత్తం ఇష్టం మనిషానా అమం మనిషానా సర్వం మనిషానా తచ్చయ్యోరావృణీమహే గాతుం యజ్ఞాయ గాతుం యజ్ఞపతయే దైవే స్వస్తిరస్తు నః స్వస్తిర్మానుషేభ్యః ఊర్ధ్వం జిగాతు భేషజం శన్నో అస్తు ద్విపదే శంచతుష్పదే ఓం శాంతి శాంతి శాంతిః ఓం ఆతోన ఇంద్రక్షుభంతం చిత్రం గ్రాభం సంగృహాయ మహాహస్తే దక్షిణేనా విద్మాహిత్వా తువి కూర్మిం తువి దేష్ణం తువి మఘం తువి మాత్రమవోభిః నహి త్వా శూర దేవానమర్తా శోధిత్సంతం భీమం నగాం వారయంతే ఏతోన్వింద్రం సవామేషానం భస్మస్వరాజం నరాధసామర్థిషన్నః ప్రస్తోషదుపగాదిశత్రవత్సామగీయమానం అభిరాధసా జుగురత్ ఆరో భరదక్షిణేనావిసవ్యేన ప్రమృషా ఇంద్రమానో వసోర్నిర్భాక్ ఉపక్రమస్వాభరధృషదా దృష్ణో జనానాం అథాశూష్టరస్య వేదః ఇంద్రయ ఉనుతే అస్తి వాజో విప్రే విశ్వనిత్వః అస్మాభిః సుతం సనుహి సద్యోజువస్తే వాజా అస్మభ్యం విశ్వశ్చంద్రాః వసయేశ్చ వక్షోజరంతే గణానాం త్వాం గణపతిం హవామహే కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పద ఆనశృణ్వన్ నోతిభిః సేదసాదనం నిషుషే గణపతి గణేషుత్వామాహుర్విప్రథమం కవీనాం నరుతే త్వత్క్రియతే కించనారే మహామర్కం మఘవన్ చిత్రమచ్చ అభిజ్ఞానో మఘవన్నాథమానాన్ సఖే బోధివసుపతే సఖేనాం రణం కృధిరణ సృచ్ఛత్య సుష్మా భక్తే చిరాభజారాయే అస్మాన్ ఓం శాంతి శాంతి శాంతిః ఓం దేవస్య త్వా సవితు ప్రసవే అశ్వినోర్బాహుభ్యాం ఊష్ణోహస్తాభ్యాం అశ్వినోర్భైషజ్యేన తేజసే బ్రహ్మవర్చసాయాభిషించామి దేవస్య త్వా సవితు ప్రసవే अश्विनोर्बाहुभ्याम् पूष्णोहस्ताभ्याम् सरस्वत्यैर्भैषज्येन वीर्यायानाद्यायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवे अश्विनोर्बाहुभ्याम् पूष्णोहस्ताभ्याम् इन्द्रस्येन्द्रियेण श्रियै यशसे बलायाभिषिञ्चामि देवस्य त्वा सवितुः प्रसवेष्विनोर्बाहुभ्याम् पूष्णोहस्ताभ्यागुम् सरस्वत्यैवाचो यन्दुर्यन्त्रेणाग्नेस्त्वा साम्राज्येनाभिषिञ्चामीन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि बृहस्पते स्त्वा साम्राज्येनाभिषिञ्चामि आयुराशास्ते सुप्रजास्त्वमाशास्ते सजातवनश्यामाशास्ते उत्तरान्वेव यज्ञामाशास्ते भूयो हविष्करणमाशास्ते दिव्यन्थामाशास्ते विश्वम् प्रियमाशास्ते यदनेन हविषास्ते तदस्यात्तदृद्याद् तदस्मै देवानासन्ताम् द्रुपदादिवेन मुमुचानः स्विन्नस्नाद्वेमलादिवा भूतम् पवित्रेणेवाज्यम् आपश्युन्धन्तु मैनसः भूर्भुवत्सुवः ॐ शान्ति शान्ति शान्तिः ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ॐ ईशावास्यमिदगुम् सर्वम् यत्किञ्च जगत्याम् जगत् तेन त्यक्तेन भुञ्जेथा मादृढ कस्य सिद्धनम् कुर्वन्नेवेह कर्माणि जीविषे क्षतगुम् समाः एवम् त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे असुर्यानामते लोक अन्धेन तमसावृताः तादस्ते प्रेत्याभिगच्छन्ति ये केचात् महनो जनाः अनेजतेकम् मनसो जवेयो नैनद्देवा आप्रुवन् पूर्वमर्षत् तद्धावतोऽन्यानयत्येति तिष्ठत्तस्मिन् नपो मादरिष्वादधाति तदेजति तन्नेजति तद्धूरे तद्वन्दिरे तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यते सर्वभूतेषु चात्मानम् ततो न विजुगुप्सते यस्मिन् सर्वाणि भूतान्यात्मैव भूत् विजानतः तत्र को मोहः कश्शोक एकत्वमनुपश्यतः सपर्यगा शुक्रमकायमव्रणमस्नाविरगुम् शुद्धमपापविद्धम् कविर्मनीषे परिभोस्वयम्भोर्याथात्यथोर्धान् व्यदधाच्छाश्वतेभ्य समाभ्यः अन्धम् तमः प्रविशन्ति ये विद्यामुपासते ततो भूय इव ते तमोयौ विद्याया गुम्रथाः अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया इति सुश्रुमधीराणाम् येनस्तद्विच चक्षिरे विद्याम् च विद्याम् च यस्तद्वेदोभयगुंसः अविद्यया मृत्युम् तीर्त्वा विद्यया मृतमश्नुते अन्धम् तमः प्रविशन्ति ये सम्भूतिमुपासते ततो भूय इव ते तमोयौ सम्भूत्यागुम् रथाः अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् इति सुश्रुमधीराणाम् येनस्तद्विच चक्षिरे सम्भूतिम् च विनाशम् च यस्तद्वेदो भयगुंसः विनाशेन मृत्युम् तीर्त्वा सम्भूत्यामृतमश्नुते हिरण्मयेण पात्रेण सत्यस्यापि हितम् मुखम् तत्त्वम् पोषन्नपावृणु सत्यधर्माय दृष्टये पोषन्नेकर्षे यमसूर्य प्राजा पत्यव्यो हरश्मीन् समोहते जोयत्ते रूपम् कल्याणतमम् तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि वायुरनिलममृतमथेदम् भस्मान्तकम् शरीरम् ॐ क्रतोस्मर कृतगस्मर क्रतोस्मर कृतगस्मर अग्नेनय सुपथाराये अस्मान् विश्वानि देव वयुनानि विद्वान् युयोज्जस्मज्जुहुरानमे नो भूयिष्ठान्ति नम उक्तिम् विधेम ॐ पूर्णमदः पूर्णमिदम् पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः ईशानः सर्वविद्यानामीश्वरः सर्वभूतानाम् ब्रह्माधिपतिर्ब्रह्मणोऽधिपतिर्ब्रह्मा शिवो मे अस्तु सदा शिवो तद्विष्णोत्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुरागतम् तद्विप्रासो विपन्यवो जाग्रवागुम् सस्यमिन्दते विष्णोर्यत्परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्व प्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नोऽहं स प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु शान्ति शान्ति शान्तिः।